निषिद्धैरप्येभिः लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम्। चतुस्त्रिंशः श्लोकः। अश्वत्थाम राजन् कौरवेश्वर किम् अद्यापि युक्त अयुक्तविचारणया? अश्वत्थाम दुर्योधनं पृच्छति, हे राजन् अद्यापि इदानीमपि किं किमर्थं युक्त अयुक्तविचारणया, किम् उचितं किम् अनुचितम् इति विचारणा किमर्थं क्रियते? तत्पूर्वं कृपाचार्येण उक्तम् आसीत् यदि यत् कर्णस्य कृते अश्वत्थाम्नः उपेक्षां न करोतु इति दुर्योधनम् उक्तवान् आसीत् कृपाचार्यः। तदर्थम् अश्वत्थामा वदति किमर्थम् इदानीं युक्तं किम् अयुक्तं किम् इति विचार्यते। अहम् अद्यैव भुवनम् अकेशवम् अपाण्डवं करोमि, भवान् निश्चिन्ततया निद्रां कर्तुं शक्नोति इति अनेन श्लोकेन उच्यते। श्लोकं पठामः। प्रयत्नपरिबोधितः स्तुतिभिः अद्य शेषे निशाम् अकेशवम् अपाण्डवं भुवनम् अद्य निःसोमकम् इमं परिसमाप्यते रणकथा अद्य दोःशालिनाम् अपैतु नृपकानन अतिगुरुः अद्य भारः भुवः। अश्वत्थामा दुर्योधनं वदति भवान् अद्य निश्चिन्तः निद्रां कर्तुं शक्नोति, यतः अहम् अद्य एतत् भुवनं केशवरहितं पाण्डवरहितं सोमवंश नाम चन्द्रवंश राजानः ये सन्ति तद्रहितं करोमि, चन्द्रवंशरहितं करोमि अहम्। इतोपि अद्य एषा रणकथा युद्धकथा परिसमाप्यते मया, नृपकानन अतिगुरुः भुवः भारः अद्य अपैतु, भूम्याः भारः अस्ति, नृप इति काननं तदेव अतिगुरुः महान् भारः अस्ति भूम्याः, सः भारः अद्य अपैतु। निशां शेषे, शेषे इति पदं शीं धातोः, शेते शयाते शेरते शेषे शयाथे शेरध्वे इति मध्यमपुरुषः एकवचनं। त्वं निशां शेषे नाम अर्थात् त्वं निद्रां करोषि इति अर्थः, भवान् निद्रां करोति, भवान् सम्यक् निद्रां करोति अद्य स्तुतिभिः प्रयत्नपरिबोधितः भविष्यति इति अध्याहारः। स्तुतिभिः मङ्गलैः वाद्यैः, मङ्गलैः स्तुतिभिः प्रयत्नेन परिबोधितः, प्रयत्नेन जागरितः भविष्यति। कारणं अश्वत्थाम्नः विवक्षा एवं स्यात् भवान् भारं मयि निक्षिपतु, भारं युद्धभारं मह्यं ददातु, अहम् उचितं कार्यं करोमि, भवान् चिन्तां विना निद्रां करोति, चिन्तां विना यदि निद्रा क्रियते चेत् सुखेन निद्रां कर्तुं शक्नोति, प्रातःकाले प्रयत्नेन एव किञ्चित् रेस्ट्लेस्नेस् अस्ति चेत् शीघ्रं जागरितः भवति मनुष्यः। अत्र रेस्ट्लेस्नेस् नाम चिन्तां विना निद्रां करोति चेत् इतोपि दीर्घकालं निद्रां कर्तुं शक्नोति इति कृत्वा प्रयत्नेन जागरितः भविष्यति प्रातःकाले इति वदति। अतः भवान् चिन्तां विना निद्रां करोति अद्य, पुनः प्रातःकाले प्रयत्नेन जागरितः भविष्यति। अहं भुवनं कम् अद्य किं करोमि, अकेशवं केशवराहित्यं केशवरहितं भुवनं करोमि, अपाण्डवं केशव नाम कृष्णरहितं करोमि, अपाण्डवं पाण्डवरहितं भुवनं करोमि, निःसोमकं सोमवंशरहितमपि करोमि अहम्। पुनः दोषालिनां इयं रणकथा अद्य परिसमाप्यते। दोषाली धो इत्युक्ते बाहु, भुजशाली इति अर्थः, भुज इति अर्थः, भुजशालिनां ये भुजशालिनः ये सन्ति तेषां रणकथा युद्धम् इति एषा कथा अद्य परिसमाप्यते, अद्य अवसाद्यते। अपैतु नृपकानन अतिगुरुः अद्य भारः भुवः। भुवः नृपकानन अतिगुरुः भारः अध्यापयितु. भुवः भूम्याः नृपकानन अतिगुरुः. नृपाः एव काननानि सन्ति. यथा कानने वृक्षाः स्निग्धाः वृक्षाः राशीभूताः भवन्ति, तथा युद्धक्षेत्रे अपि नृपतयः अत्यधिकाः सन्ति. अतः ते एव भूम्याः भारः अपि सन्ति. अतः नृपाः एव काननं, तद् काननम् अतिगुरुः नाम महान् भारः अस्ति भुवः भूम्याः. तादृशः भूम्याः नृपरूपभारः यत् अस्ति भूम्याः, सः भारः अद्य अपयतु, अद्य दूरीभवतु इति वदति अश्वत्थामा. एवं वदति, युद्धस्य दायित्वं मम समीपं ददातु, भवान् सुखेन निद्रां करोतु, श्वः प्रातः प्रयत्नेन प्रबोधयन्ति भवतः वैतालिकाः, स्तुतिभिः भवन्तं प्रयत्नेन प्रबोधयन्ति. अपि च भुजशालिनां रणकथा युद्धकथा अद्य कथञ्चित् परिसमाप्यते. एवं भूम्याः नृपरूपभारः यदस्ति भूम्याः, सः भारः अद्य दूरीभवति इति विश्वासेन दुर्योधनं वदति अश्वत्थाम. अत्र नृपकानन इति अत्र रूपकालङ्कारः भवति. इदानीं व्याख्यां पठामः. अद्य सम्प्रति स्तुतिभिः स्तवैः प्रयत्नपरिबोधितः, प्रयत्नैः विविध उपायैः परिबोधितः, जागरितः निशां यामिनीं शेषे शयनं करोषि. अद्य अस्मिन् दिने भुवनं लोकम् अकेशवं, नास्ति केशवो यस्मिंस्तत् केशवशून्यम्, अपाण्डवं पाण्डवहीनं निःसोमकं सोमवंशवियुक्तं च करिष्यामि. अद्य दोषशालिनां भुजशालिनाम् इयम् एषा रणकथा युद्धवार्ता परिसमाप्यते, परितः सर्वतः समाप्यते, समाप्ता भविष्यति. अद्य नृपकानन अतिगुरुः राजकानन अतिदुर्भरः भुवः पृथिव्याः भारः अपयतु व्यपगच्छतु. कर्णः विहस्य, द्रोणात्मज वक्तुं सुकरम् इदं दुष्करम् अध्यवसितुम्. बहवः कौरवबले अस्य कर्मणः शक्ताः. हे द्रोणात्मज, अश्वत्थामानं सम्बोधयति द्रोणस्य पुत्र. वक्तुं सुकरम् इदम्, इदं भवान् यद् वदति तत्सर्वम् अकेशवम् अपाण्डवं करोमि निःसोमकं करोमि इति सर्वं वदति, रणकथा अद्य समाप्यते, नृपका भूम्याः भारः अद्य अपयतु इति यद्यत् वदति, तत्सर्वं वक्तुं सुकरम्, वक्तुं बहु सरलमस्ति, वक्तुं शक्नोति, किन्तु अध्यवसितुं दुष्करं. दुष्करं नाम वेरि डिफ़िकल्ट्, एतत् प्राक्टिकलि बहु कष्टमस्ति इति वदति. सामान्यतया वक्तुं सर्वदा सरलं भवति, किन्तु तत् कार्यरूपेण तस्य प्रदर्शनं वा तस्य आनयनं वा बहु कष्टं भवति. अतः दुष्करम् अध्यवसितुं, कार्यरूपेण तद् कर्तुं सरलं नास्ति. बहवः कौरवबले अस्य कर्मणः शक्ताः. कौरवबले, कौरवसेनायां बहवः शक्ताः सन्ति. बहवः भवान् यद् उक्तवान् तत् कार्यं कर्तुं बहवः समर्थाः सन्ति. अतैव स्लो मन्दं मन्दं कर्ण अश्वत्थाम्नोः एक लघु फ्रिक्षन् आरभ्यते. तत् किञ्चित् इन्सल्ट् आरम्भं करोति कर्णः. अत्र इदानीम् अश्वत्थामा वदति, अङ्गराज एवम् इदं बहवः कौरवबले शक्ताः, किन्तु दुःख उपहतः शोक आवेगवशात् ब्रवीमि न पुनः वीरजन अधिक्षेपेन. हे कर्ण, एवमिदं बहवः कौरवबले अत्र शक्ताः, अहमपि जानामि कौरवबले अत्र एतादृशं कार्यं कर्तुं बहवः वीराः समर्थाः सन्ति, अहं न इति न वदामि, किन्तु दुःख उपहत हतः दुःखेन उपहतः अस्मि अहम्, अहं दुःखेन ताडितः अस्मि, अहं दुःखेन हतः अस्मि. अतः शोक आवेगवशात्, शोकवशात् शोकम् इति आवेगः अस्ति, तस्मात् कारणात् तद् सः शोकः मां वाचयति, तस्मात् शोकेन अहं वदामि, पुनः वीर अधिक्षेपेन न. अधिक्षेपः नाम निन्दा, इन्सल्ट् इति अर्थः. अतः वीराणां निन्दनं न करोमि, वीराणाम् अपमानरूपं वाक्यम् अहं न वदामि. अत्र बहवः समर्थाः सन्ति, अहमपि जानामि, किन्तु अहं शोकेन उपहतः अस्मि, तस्मात् वदामि, पुनः वीराणां निन्दां न करोमि. अहं वीरनिन्दां न करोमि, वीराणाम् अधिक्षेपः अहं न मया न क्रियते इति. कर्णः मूढ, दुःखितस्य अश्रुपातः, कुपितस्य च आयुधद्वितीयस्य सङ्ग्राम अवतरणम् उचितं, न एवंविधाः प्रलापाः. दुःखितस्य अश्रुपातः, भवान् दुःखितः अस्ति इति उक्तवान् किल कर्णः वदति अश्वत्थामान, भवान् दुःखितः अस्ति, दुःखितस्य अश्रुपातः एव. अश्रुपातः नाम अश्रुजलविमोचनम् एव भवति. किन्तु कुपितस्य आयुधद्वितीयस्य सङ्ग्राम अवतरणम् उचितम्. कुपितस्य, यः कोपेन अस्ति, तस्य आयुधद्वितीयस्य, आयुधम् एव यस्य द्वितीयं भवति, नाम सः स्वस्मात् परम् आयुधे एव विश्वसिति, तादृशः आयुधद्वितीयः भवति. आयुधं द्वितीयं यस्य तस्य आयुधद्वितीयस्य सङ्ग्राम अवतरणं, युद्धक्षेत्रे अवतरणमेव उचितं भवति. भवान् अकेशवम् अपाण्डवं करोमि भुवनम् इति कथनेन प्रयोजनं नास्ति, केवलं कथनेन प्रयोजनं नास्ति, साक्षात् युद्धक्षेत्रे अवतरणीयं भवति. न एवंविधाः प्रलापाः न उचिताः न युक्ताः, अतः भवान् प्रलापं त्यजतु. दुःखितस्य एव अश्रुपातः भवति, भवतः केवलम् अश्रुपातः एव भवति, वृथा प्रलापं करोति इति अर्थः, प्रयोजनहीनं प्रलापं करोति. किन्तु कुपितस्य यस्य क्रोधः अस्ति, तस्य आयुधद्वितीयस्य, तादृशस्य आयुधद्वितीयस्य युद्ध अवतरणमेव उचितं भवति, एवंविधाः प्रलापाः प्रयोजनहीनाः इति. अश्वत्थामा सक्रोधम्, अरे रे राधा गर्भभारभूत सूत अपसद, ममापि नाम अश्वत्थाम्नः, दुःखितस्य अश्रुभिः प्रतिक्रियाम् उपदिशसि न शस्त्रेण पश्य. तदानीम् अश्वत्थाम्नः क्रोधः जातः, रे रे राधा गर्भभारभूत सूत अपसद, राधा इति कर्णः, कर्णस्य मातुः नाम, राधायाः गर्भे भारभूतः त्वम् इति वदति. राधा गर्भभारभूत सूत अपसद नाम सूत सारथिकुल नीच इति अर्थः, सूत अपसद. ममापि नाम अश्वत्थाम्नः, दुःखितस्य अश्रुभिः प्रतिक्रियाम् उपदिशसि न शस्त्रेण. मम अश्वत्थाम्नः, मम कृते तद् कीदृशस्य अश्वत्थाम्नः, दुःखितस्य अश्वत्थाम्नः अश्रुभिः प्रतिक्रियाम् उपदिशसि, प्रतिक्रियां नाम रिवेञ्ज्, तद् रिवेञ्ज् अश्रुभिः करोतु. मम अश्रुपातः एव दुःखितस्य इति वदति किल, अतः माम् अश्रुभिः अश्रुजलैः प्रतिक्रियां करोतु इति माम् उपदिशति किम्, न शस्त्रेण, शस्त्रेण प्रतिक्रियां करोतु इति न उपदिशति भवान्. पश्य निर्वीर्यं गुरुशापभाषितवशात् किं मे तव इव आयुधं, सम्प्रत्येव भयात् विहाय समरं प्राप्तोऽस्मि किं त्वं, यथा जातोऽहं स्तुतिवंशकीर्तनविधां किं सारथीनां कुले, क्षुद्र आरातिकृत अप्रियं प्रतिकरोमि अस्त्रेण न अस्रेण यत्. क्षम्यताम्, प्रतिकरोमि अस्रेण न अस्त्रेण यत्, प्रथमम् अस्रेण अनन्तरम् अस्त्रेण, प्रतिकरोमि अस्रेण न अस्त्रेण यत्. अश्वत्थामा मन्दं कर्णस्य अधिक्षेपं करोति अनेन श्लोकेन. अश्वत्थामा वदति, यथा परशुरामस्य शापवशात् तव आयुधं सर्वं निर्वीर्यं जातं, मम तु तथा न, अपि च भवान् इदानीं युद्धक्षेत्रात् भयेन पलायितवान् आसीत्, अहं तु तथा न कृतवान्. पुनः अहं तु भवानिव सूतवंशेन जातः, उच्चकुले जातः अस्मि अहं, सर्वदा जातिं प्रयुज्य अपि अधिक्षिपति कर्णम् अश्वत्थामा, स्तुतिवंशकीर्तनविधां सारथिकुले अहं न जातः अस्मि यथा भवान् जातः। पुनः क्षुद्राणां नीचानां शत्रूणां प्रतिक्रिया तु अस्त्रेण करोमि किम्, अहं न करोमि, अस्त्रेण एव करोमि इति वदति। गुरुशापभाषितवशात् अर्थकरणसमये एवं स्वीकरणीयं भवति, गुरु भाषितशापवशात् इति स्वीकुर्मश्चेत् अर्थः सम्यक् सिद्ध्यति। गुरुणा कथितः शापः, भाषितः शापः तस्मात् कारणात् इति च, गुरुणा दत्तशापः। कदाचित् कर्णः परशुरामस्य समीपं सः क्षत्रियः इति विषयम् अनुक्त्वा ब्राह्मणः इति उक्त्वा अस्त्रविद्यां शस्त्रविद्यां प्राप्तुं गतः आरब्धवान्। तद् कदाचित् अन्ते परशुरामः सः क्षत्रियः एव इति ज्ञात्वा तस्य शापं दत्तवान्, कर्णस्य शापं दत्तवान्। किमित्युक्ते यदा प्रयोगं कर्तुम् उद्युक्तः भवति तदा तस्य अस्त्रस्य वीर्यं, ब्रह्मास्त्रस्य वीर्यं न भवति इति, नो चेत् विस्मरति इति शापं दत्तवान् आसीत्। अतः गुरुकथितशापवशात्, गुरुभाषितशापवशात् मे मम आयुधं तव इव, तव आयुधमिव निर्वीर्यं किं, वीर्यरहितं किं, तव आयुधमिव मम आयुधं तु निर्वीर्यम् आयुधं न, तव आयुधं ति गुरोः शापवशात् निर्वीर्यं जातमस्ति, वृथा अस्ति तव आयुधं सर्वं, मम आयुधं तथा न। त्वं सम्प्रति एव, इदानीम् एव भयात्, भयकारणात् समरं विहाय, समरं युद्धं त्यक्त्वा प्राप्तः आगतः अस्ति, आगतः तथा अहमस्मि किम्, अस्मि किम् इति मात्रम् अस्ति अत्र वाक्ये, अतः अहं तथा अहम् अस्मि किम् इति, तथा अहम् इति पदद्वयम् अत्र अध्याह्रियते। यथा भवान् भयकारणात् युद्धक्षेत्रं त्यक्त्वा आगतवान् तथा अहमपि भयात् युद्धक्षेत्रं त्यक्त्वा आगतवान् किम् इति अर्थः। सारथीनां कुले जातोऽहं किम्, अहं त्वमिव सारथीनां कुले, सारथिकुले जातः किम्। कीदृशानां सारथीनां कुले इत्युक्ते स्तुतिवंशकीर्तनविदां, ते सारथयः किं जानाति, सारथीकुलं किं जानाति इत्युक्ते स्तुतिवंशकीर्तनविदः सन्ति सारथिकुलाः। स्तुतिवंशानां कीर्तनं गायन्ति, नाम राजवंशस्य कीर्तनं कुर्वन्ति, तादृशाः स्तुतिमपि कुर्वन्ति। अतः स्तुतिवंशकीर्तनविदां, विद् इस् टु नो, जानाति, ये जानन्ति स्तुतिं वंशकीर्तनं च, ये कर्तुं शक्नुवन्ति, ये कर्तुं जानन्ति, तादृशानां सारथिकुलां, सारथीनां कुले अहं जातः किम्। एतत् सर्वं किमर्थं, मम तव इव मम आयुधं निर्वीर्यं किम्, अहं भवानिव युद्धक्षेत्रात् पलायितः किम्, पुनः सारथीनां कुले जातः किम् इति एतत् सर्वं किमर्थं वदति इत्युक्ते अग्रे चतुर्थ्यां पङ्क्त्याम् उच्यते। कारणं क्षुद्र अरातिकृत अप्रियं प्रतिकरोमि अस्त्रेण न अस्त्रेण यत्, क्षुद्र नीच अराति शत्रु, सो नीचानां नीचैः शत्रुभिः कृतं यत् अप्रियं कार्यम् अस्ति, मम पितुः वधरूपं अप्रियं कार्यम् अस्ति, तस्य प्रतिक्रिया अस्त्रेण अश्रुजलेन क्रियते किं मया, न तु शस्त्रेण, शस्त्रेण न क्रियते किम्, अहं शस्त्रेणैव कर्तुं शक्नोमि, कारणम् अहं मम आयुधं भवतः आयुधमिव निर्वीर्यं न, अहं भवानिव युद्धात् न पलायितः, अहं सारथीनां कुले वंशकीर्तनविदां सारथीनां कुले न जातः, अतः अहम् अस्त्रेण एव प्रतिक्रियां कर्तुं शक्नोमि, अस्त्रेण करणीयम् इति न इति अश्वत्थामा वदति। व्याख्यां पठामः. मे मम आयुधम् अस्त्रं तव इव त्वत्समं गुरुशापभाषितवशात् गुरोः परशुरामस्य शापभाषितं कथितशापं तद्वशात् किं निर्वीर्यं सामर्थ्यरहितं जातं किम्? यथा येन प्रकारेण त्वं कर्णः सम्प्रत्येव इदानीमेव भयात् भीत्या समरं रणं विहाय त्यक्त्वा तथा पुनः किं प्राप्तः अस्मि समागतः अस्मि. स्तुतिवंशकीर्तनविदां स्तुत्यैस्तवनाय यत् वंशकीर्तनं कुलपूर्वजानां नामगुणादिकथनं तद् विदन्ति इति तेषां सारथीनां सूतानां कुले वंशे अहम् अश्वत्थामा खलु अहं जातः उत्पन्नः किम्? यत् हि क्षुद्र अरातिकृत अप्रियं क्षुद्राः नीचाः ये अरातयः शत्रवः भीमार्जुनादयः तैः कृतं विहितं यद् अप्रियं मम पितृवधरूपं कर्म तत् अस्त्रेण नयनवारिणा करोमि विदधामि अस्त्रेण न आयुधेन न प्रतिकरोमि. अत्र चतुर्थ्यां पङ्क्त्यां न इति पदं न अस्त्रेण इत्यपि अन्वयं कर्तुं शक्यते. न अस्त्रेण अस्त्रेण इति कारणम् अहं नाम अहं अहम् अस्त्रेण न प्रतिकरोमि अस्त्रेण प्रतिकरोमि. शत्रूणाम् अप्रियस्य कार्यस्य प्रतिक्रियाम् अहम् अस्त्रेण न करोमि अस्त्रेण करोमि इति उच्यते चेत् तद् सामान्यं वाक्यं भवति. किन्तु अत्र अस्त्रेण प्रतिकरोमि न अस्त्रेण इति किञ्चित् काकु इति कश्चित् विषयः उच्यते. तत्र उचितस्थाने उचितम् इण्टनेशन्स् दीयते चेत् तस्य अर्थः काव्यस्य सौन्दर्यं वर्धयति तद् काकु इति विषयः. एवम् अहम् अस्त्रेण प्रतिकरोमि अस्त्रेण न प्रतिकरोमि किम् इति किञ्चित् ध्वनिं वयं ध्वनेः भावं किञ्चित् भिन्नं कुर्मश्चेत् तस्य सौन्दर्यम् अपि वर्धते काव्यस्य सौन्दर्यमपि वर्धते. कारणम् अत्र पङ्क्तित्रये एवम् उच्यते मम आयुधं तव आयुधमिव निर्वीर्यं किम् अहं युद्धात् पलायितः किम् अहं सारथीकुले जातः किम् इति एवं विधेन कथनम् एवं विधम् अस्ति. अतः चतुर्थ्यां पङ्क्त्यामपि अहम् अस्त्रेण न प्रतिकरोमि किम् इति पृच्छति चेत् एव सम्यक् भवति. अतः अग्रे कर्णः सक्रोधम् अरे रे वाचाट वृथा शस्त्रग्रहण दुर्विदग्ध वटो. अरे रे वाचाट वाचाट नाम अधिकं यः वदति सः वाचाट. वृथा शस्त्रग्रहण दुर्विदग्ध शस्त्रग्रहणे दुर्विदग्ध नाम अपण्डितः. यः दुर्विदग्धः नाम पण्डितः नास्ति. शस्त्रग्रहणे वृथा शस्त्रग्रहणे शस्त्रस्य ग्रहणे दुर्विदग्धः अस्ति त्वं नाम अपण्डितः त्वं न जानासि शस्त्रग्रहणं दुर्विदग्ध वटो वटो इति अत्र हे बालक इति अर्थे बालक. निर्वीर्यं वा सवीर्यं वा मया न उत्सृष्टम् आयुधं यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना. कर्णः वदति मम आयुधं निर्वीर्यं वा सवीर्यं वा भवतु पराक्रमसहितं वा पराक्रमरहितं वा भवतु अहम् आयुधं न उत्सृष्टवान् अहम् आयुधं न त्यक्तवान् यथा भवतः पिता दृष्टद्युम्नात् भीतः तव पिता आयुधं त्यक्तवान् तथा अहं न त्यक्तवान् आयुधं. मम आयुधं पराक्रमसहितं वा पराक्रमरहितं वा भवतु किन्तु अहं न त्यक्तवान् इति वदति. निर्वीर्यं वा सवीर्यं वा पराक्रमयुक्तं वा पराक्रमरहितं वा मया आयुधं न उत्सृष्टं मया आयुधं न त्यक्तं कथं? यथा ते पित्रा इति पदस्य विशेषणमस्ति बाहुशालिना पित्रा इति वदति. भवतः पिता बाहुशाली अस्ति अतः बाहुशालिना तव पित्रा पाञ्चालभीतेन यथा आयुधम् उत्सृष्टम् तथा अहम् न कृतवान् तथा मया न उत्सृष्टम् पाञ्चालभीतेन दुष्टद्युम्न भयात् यथा आयुधम् उत्सृष्टम् त्यक्तम् तथा मया न त्यक्तम् अपि च सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् दैवायत्तम् कुले जन्म मदायत्तम् तु पौरुषम्। ततः पूर्वं व्याख्यां पठित्वा षट्त्रिंशः श्लोकः, तस्य व्याख्यां पठामः। निर्वीर्यं निर्बलं वा अथवा सवीर्यं सबलं मया कर्णेन आयुधं शस्त्रं न उत्सृष्टं नैव परित्यक्तं यथा यत्प्रकारं पाञ्चालभीतेन पाञ्चालेन द्रुपदसुतेन भीतः त्रस्तः तेन तेन बाहुशालिना भुजपराक्रमिना ते तव पित्रा जनकेन उत्सृष्टम्। अत्र पाञ्चालभीतेन बाहुशालिना पाञ्चालभीतेन ते पित्रा इति विशेषणद्वयम्। पाञ्चालात् भीतः तव पिता, तेन पित्रा यथा आयुधम् उत्सृष्टम् तथा मया न उत्सृष्टम् आयुधम् इति। अपि च सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् दैवायत्तम् कुले जन्म मदायत्तम् तु पौरुषम्। अयम् श्लोकः अतिमुख्यः श्लोकः अस्ति। सूतः वा सूतपुत्रः वा यः वा कः वा भवामि अहम्, अहं सूतः वा भवामि सूतस्य पुत्रः वा भवामि, कुले जन्म दैवायत्तम् अस्ति। उत्तम उच्चकुले वा नीचकुले वा कस्यचित् अपि जननं जन्म तु दैवायत्तं विधिवशात् भवति। कर्मफलम् अत्र कारणं भवति, किन्तु पौरुषं तु मदायत्तं भवति, पौरुषं तु स्वाधीनं भवति, मम अधीनं भवति। पौरुष नाम पराक्रमः, कस्यचित् अपि वीरस्य पराक्रमः तु स्वाधीनः भवति, किन्तु तस्य कुले तस्य जननं तु उत्तमकुले जननं वा नीचकुले वा तस्य जननं तु विधि आयत्तं भवति, नाम विधिवशात् एव भवति, तस्य कर्मणः फलं भवति तद् कुले जन्म। अतः अहं सूतः वा सूतपुत्रः वा भवामि, अहं पराक्रमः मम समीपे अस्ति इति वदति। तत्सर्वं मम हस्ते नास्ति, उत्तमकुले वा नीचकुले वा जन्म मम हस्ते नास्ति, किन्तु पराक्रमः मदीनः स्वाधीनः अस्ति मम इति। श्लोकः अतिसरलः श्लोकः किन्तु बहु मुख्यः श्लोकः अस्ति अयं श्लोकः। बहुत्र अस्य श्लोकस्य उल्लेखः दृश्यते, सरलतया अन्वेति श्लोकः। व्याख्यां पठामः। सूतः सारथिः वा अथवा सूतपुत्रः सारथिसुतः वा यो वा को वा यः कोऽपि अहं कर्णः भवामि अस्मि। कुले वंशे जन्म उत्पत्तिः दैवायत्तं भाग्य अधीनं, पौरुषं तु पराक्रमः तु मदायत्तं मदधीनम्।